शृण्वन्तु विश्वे अमृतस्य पुत्र आये नमानि दिव्यानि तस्तु वेदाहमिन्तं पुरुषं महान्त आदित्यवर्णान्तं सः परस्तात्तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यते यनाय.
Listen, the children of immortal bliss, even those who are living in heaven, listen. There is an infinite conscient being, luminous like a blazing sun. If you realize that alone, you can go beyond death. There is no other way.